श्रीमद्भागवत महापुराणम् एकादशस्कन्धः अथ षड्विंशोऽध्यायः श्रीभगवानुवाच मल्लक्षणमिमं कायं लब्ध्वा मद्धर्मास्थितः आनन्दं परमात्मानमात्मस्थं समुपैति मां गुणमय्या जीवयोन्या विमुक्तो गुणेषु मायामात्रेषु दृश्यमानेष्व वस्तुतः वर्तमानोऽपि न पुमान् युज्यते वस्तुभिर्गुणैः सङ्गन्न कुर्यादसतां शिष्णोदरकृपां क्वचित् तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् ऐलसम्राडिमां गाथामगायत बृहच्छ्रवाः उर्वशी विरहान्मुह्यन् निर्विण्णशोकसंयमे त्यक्त्वात्मानौ व्रजन्तीं तान्नग्न उन्मत्तवन् नृपः विलपन्नन्वगा जाये घोरे तिष्ठेति विक्लवः कामानतृप्तोऽनुजुषन् क्षुल्लकान् वर्षयामिनीः न वेदयान्तीर्नायान्ति रुर्वश्याकृष्टचेतनः ऐल उवाच अहो मे मोहविस्तारकामकश्मलचेतसः देव्यागृहीतकण्ठस्य नायुःखण्डा इमे स्मृताः सूर्यो वाभ्युदितो मुया मुषितो वर्षपूगानां बताः निगतान्युत अहो मे आत्मसं योषितां कृतः क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम् यान्तीं स्त्रियै चान्वगमन्नग्न उन्मत्तवद्रुदन् कुतस्तस्यानुभावस्याते ज ईशत्वमेव वा योऽन्वगच्छं स्त्रियै यान्तीं खरवत्पादताडितः किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा किं विवेकेन मौनेन स्त्रीभिर्यस्य मनोरुतम् स्वार्थस्य को विदन् योऽहमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः सेवतो वर्षपूगान्मे उर्वश्याधरासवम् न तृप्यत्यात्मभूक्कामो वह्निराहुतिभिर्यथा पुंश्चल्या परुतै चित्तं कोन्वन्यो मोचितुं प्रभुः आत्मारामीश्वरमृते भगवन् क्षजम् बोधितस्यापि देव्यामि सूक्तवाक्येन दुर्मतेः मनोगतो महामोहो नापयात्यजितात्मनः किमेतयानोपकृतं रज्ज्वा वा सर्पचेतसः रज्जुस्वरूपा विदुषो यो है यदजितेन्द्रियः क्वायं मलीमसत्कायो दौर्गन्ध्याद्यात्मको शुचिः क्व गुणासौ मनस्याद्यायध्यासो विद्यया कृतः पित्रोः किं स्वन्नुभार्याय स्वामिनोऽग्नीष्वरुद्रयो किमात्मनः किं सुहृदामिति यो नावसीयते तस्मिन् कलेवरे मेध्ये तुच्छनिष्ठे विसर्जते अहो सुभद्रं सुनसं सुस्मितै च मुखं स्त्रियः त्वं मां सरुधिरस्नायु मेदो मज्जास्ति संहतौ विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् अथापि नोपसज्जितस्त्रीषु स्त्रैणीषु चार्थवित् विषयेन्द्रियसंयोगान्मनः क्षुभ्यति नान्यथा अदृष्टादश्रुताद्भावान्न भाव उपजायते असंप्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः तस्मात् सङ्गो न कर्तव्य स्त्रीषु स्त्रैणीषु चेन्द्रियैः विदुषाय चाप्यविश्रब्ध षड्वर्ग किमु मादृशाम् श्रीभगवान् ब्रह्मणुवाच एवं प्रगायन् नृपदेव देव सर्वशीलोकमथो विहाय आत्मानमात्मन्यवगम्य मां वै उपारमज्ञानविधूतमोहः ततो दुःसङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान् सन्तैतस्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः सन्तोनपेक्षामच्चित्ताः प्रशान्ताः समदर्शिनः निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः तेषु नित्यं महाभागमहाभागेषु मत्कथाः सम्भवन्ति हितानृणाय जुषतां प्रपुनन्त्यघम् ताये शृण्वन्ति गायन्ति यनुमोदन्ति चादृताः मत्परा श्रद्दधानाश्च भक्तिर्विन्दन्ति ते मयि भक्तिर्लब्धवतः साधोः किमन्यदवशिष्यते मय्यनन्तगुणी ब्रह्मण्यानन्दानुभवात्मनि यथोपश्रयमाणस्य भगवन्तौ विभावसुम् शीतं भयन्तमोऽपीति साधून् संसेवतस्तथा निमज्योन्मज्जतां घोरे भवाब्धौ परमायनम् सन्तो ब्रह्मविदशान्ता सुमज्जताम् अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहं धर्मो वित्तन्द्रुणां प्रीत्य सन्तोर्वाग्विभ्यतोरणम् सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः देवता बान्धवाः सन्तः सन्त आत्माहमेव च वैतसीनस्ततोऽप्येव मुर्वश्यालोकनिःस्पृहः मुक्तसङ्गो महीमेतामात्मा रामश्चचारः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे षड्विंशोऽध्यायः ॐ सर्वं श्री